प्रभाकाञ्चनाङ्ग जगद्भीतशौर्यं तुषाराद्रिधैर्यं तृणीभूतहेतुं रनोद्यद्विभूति भजे वायुपुत्रं पवित्राप्तमित्रम्
भजे पावनं भावना नित्यवासं भजे बालभानु प्रभाचारुभासं भजे चन्द्रिका कुन्दमन्दारहासं भजे सन्ततं राम भूपालदासं
क्षातिदक्षं भजे तोषितानेकगीर्वाणपक्षं भजे घोरसङ्ग्रामसीमाहताक्षं भजे रामनामातिसम्प्राप्तरक्षम्
कृताभीलनादक्षितक्षिप्तपादं घनक्रान्तभृङ्गं कटिस्थोरुजाङ्गं वियुद्व्याप्तकेशं भुजाश्लेषितास्मं समेतं भजे रामदूतम्
शीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम्
रणे भीषणे मेघनादे सनादे सरोषे समारोपणामित्रमुख्ये खगानां घनानां सुरानां च मार्गे नटन्तं समन्तं तुभ्यं नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा राम भक्ताय तुभ्यम्।